गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादरम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उत तैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः या तैषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनोरघोरा पापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिजाकृषि यामिषम् गिरिशन्तहस्ते विपर्श्यस्तमे शिवाङ्गिरित्रताम् कुरुमाहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोच दधि वक्ता प्रथमो दैव्योऽभिषक् अयेवश्च सर्वान्यम्भयन् सर्वाश्च यातु धान्यः अतो यस्ताम्रो अरुण उत बभ्रस्वमङ्गलः ये चेमागुम् रुद्र अभितो दिक्षश्रुता सहस्रशो वै सागुम् हेडयीमहे असह्यो वसत्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोच्य याश्च देहस्तैषव परातः भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशते सुधे निशेर्य शल्याणाम् मुखा शिवो नः सुमना भव वीर्यम् धनु कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आमुरस्य निषङ्गतिः याते हेतिर्मेनुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभ्युज नमस्ते अस्त्वायुधाय नारदाय कृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेते अस्मान् नृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशां शपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदये नमो नमः। स्वस्पिञ्जराय त्वशीमते पथीनां पदये नमो नमो। भव्लुषाय विव्याधिनेन्द्रानां पदये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पदये नमो नमो। भवस्य हेत्ये जगतां पदये नमो नमो। रुद्राय रताविने क्षेत्राणां पदये नमो नमः। सूताय हन्त्याय वनानां पदये नमो नमो। रोहिताय स्थपतये वृक्षाणां पदये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पदये नमो नमो। भवन्तये वारिवस्कृताय औषधीनां पदये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीनां पदये नमो नमः। कृष्णमेताय धावते सत्त्वनां पदये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पदये नमो नमः। ककुभाय निषङ्गिणे सेनानां पदये नमो नमो। निषङ्गिण इषुधिमते तस्कराणां पदये नमो नमो। वञ्चते परिवञ्चते स्थायूनां पदये नमो नमो। निचेरवे परिचरायारण्यानां पदये नमो नमः। सकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पदये नमो नमो। शिवद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पदये नमो नम। उष्णेषिणे गिरिचराय कुलुञ्चानां पदये नमो नम। इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो। नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम। आदेनेभ्यः शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम। स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम। सभाभ्यः सभापतिभ्यश्च वो नमो नम। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुम्हरेभ्यश्च वो नमो नमो। कृत्स्नेभ्यो कृत्सपदिभ्यश्च वो नमो नमो। भ्रातेभ्यो भ्रातपदिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रतिभ्यो रतेभ्यश्च वो नमो नमो। रते रथपतिभ्यश्च वो नमो नमस्सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च क्षितिकण्ठाय च नमः कवर्धिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेनुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्रयाय च प्रथमाय च नमः आशवे च निराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय चावसन्याय च नमः स्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्नियाय च नमः शोभ्याय च प्रतिसर्ग्याय च नमो याम्याय च क्षेम्याय च नमः अर्वर्याय च खल्याय च नमः श्लोक्याय च वसाङ्ग्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च विन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमुषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तेष्णेषवे च युधिने च नमः स्वायुधाय च सुधन्वने च नमस्तुत्याय च पथ्याय च नमः कात्याय च नीप्याय च नमः चोध्याय च सरस्याय च नमो नाध्याय च वैषन्ताय च नमः तोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐन्द्रियाय च सप्याय च नमो वात्याय च रेश्म्याय च नमो वासव्याय च वास्तवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्ते नित्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शस्प्याय च मेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रवक्त्याय च नमः हेगं शिलाय च शयनाय च नमः कवर्दिने च मुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः तात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शस्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः नोर्भ्याय च शून्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो भक्तिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्भतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् मरुचाणामेषाम् वशूनाम् मामेर्मा रोमो एषाम् किञ्चनामवत् या ते रुद्रशिवा तनो शिवा विश्वामभेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने शयद्वीराय प्रवरामहे मतिम् यथा नश्रमचद्विमदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधिक्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुरायजे पिता तदश्यावतवरुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मानमुक्षन्तमुतमानमुक्षितम् मानो वदे पितरम् मात मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः नैरान्मानो रुद्रवामितो वधेर्हविष्मन्तो नमजा विधेमते आरात्रे गोघ्र उत पोरुषघ्ने क्षयद्वीराय सुन्दमस्मेते असो रक्षा च नो अधि च देव ब्रह्म्यथा च न शर्म यच्च द्विवर्हाः सुहि श्रुतम् गत्त तदम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परित्तेशस्य दुर्मतिरघायो अवस्थिरा मघवद्भ्यस्तनुष्वमीनस्तोकायतनयाय मृडय मेदुष्टमशिवतमशिवो नः सुमना भव పరమే వృక్ష ఆయుధం నిదాయ కృత్తిం వచాన ఆచర పినాకం ప్రదాగహీ వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివబంధుతాః సహస్రాణి సహస్రదావాస్తవ హేతయః తాదామీశానో భగవః పరాచేన ముఖాకృధి సహస్రాణి సహస్రశోని రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వారి తన్మతే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవాది నీలగ్రీవాషితికండా సర్వాదక్షమాచరా నీలగ్రీవాషితికంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసక్కపత్నినః హే అన్యేషు విభిద్యంతి పాత్రేషు పిబతో జనాన యే పథాం పతిరక్షయ ఐలవృదాయభ్యుదః యే తీర్థాని ప్రచరంతి సృకావంతో నిషంగిణః యేతావంతశ్చమోయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వధన్వారి తన్వసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషా మందం పాతో వర్షమిషవస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణ దశ ప్రతేచేర్దశోదేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృళయంతు తేయం నిష్మోయశ్చ నో ద్వే ష్టితం వోజం వేదధామి త్రయంబకం యజామహే సుగంధిం పుష్టివర్ధనం అర్వారుకమివ వందనాన్ మృత్యోర్ముక్ష్యేయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వాభువన వివేశదస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాచా మృత్యు మత్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్యేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యర్మే పాహి తమష్టుయశ్వసుధన్వాయో విశ్వస్య క్షయతి మే సజస్య యక్ష్వామయేసౌ మనసాయ రుద్రం నమో నిర్దేవమసురం ధువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివాభిమర్శనః శాంతి 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 ఓం షంచ మే మయశ్చ మే ప్రియంచ మేను కామశ్చ మే कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे भस्यश्च मे यशश्च मे भगश्च मे द्रविडं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे अनमित्रं च मे अभयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मि कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुं राजा अप्येषागस्तवतिर्हतः अधो माता अधो पिता अधो स्थूरा अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् कण्फन्मृषे ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वै वारुणिः वरुणं पितरमुपससार अधीः भगवो ब्रह्मेति तस्मायेतत्प्रोवाच अन्नं प्राणं चक्षुश्रोत्रं मनोवाचमिति तगुम्होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तव सा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुम्भोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपो तप्यत सतपस्तप्त्वा मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसंविशन्तीति तद्भिज्ञाय पुनरेव वरुणम् पितरमुपससार अधीहि भगवो ब्रह्मेति तगुम्भोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपो तप्यत सतपस्तप्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानम् प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीहि भगवो ब्रह्मेति तगुम्भोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपो तप्यत सतपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दम् प्रयन्त्यभिसंविशन्तीति सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता य एवम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसेन महान् येत्या अन्नम् न निन्द्यात् तद्वतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणः प्रतिष्ठितः तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसेन महान् कीर्त्या अन्नम् न परिचक्षीत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सु ज्योतिः प्रतिष्ठितम् ज्योतिश्शापः प्रतिष्ठिताः तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसेन महान् कीर्त्या अन्नम् बहु कुर्वीत तद्व्रतम् पृथिवी वा अन्नम् आकाशोन्नादः पृथिव्यामाकाश प्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसेन महान् कीर्त्या न कञ्चन वसतौ प्रत्यारक्षीता तत्व्रतम् तस्माद्ययाकया च विधया बह्वन्नम् प्राप्नुयात् आराध्यस्वा अन्नमित्याचक्षते एतद्वै मुखतोऽन्नगुम् राद्धम् मुखतोऽस्मा अन्नगुम् राध्यते एतद्वै मध्यतोऽन्नगुम् राद्धम् मध्यतोऽस्मा अन्नगुम् राध्यते एतद्वा अन्ततोऽन्नगुम् राद्धम् अन्ततोऽस्मा अन्नगुम् राध्यते य एवम् वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषी समाज्ञाः अथ दैवीः तृप्तिरिति वृष्टौ बलमिति विद्युति यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते स्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीत पर्येणम् म्रियन्ते द्विषन्तः सपत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चाचावादित्ये स एकः स य एवंवित् अस्माल्लोकात् प्रेत्या एतमन्नमयवात्मानमुपसङ्क्रम्य एतम् प्राणमयवात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नीकामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते अहमन्नमहमन्नमहमन्नम् अहमन्नादो अहमन्नादो अहमन्नादः अहग्श्लोककृदः श्लोककृदः श्लोककृत अहमस्मि प्रथमजारुता पूर्वम् देवेभ्यो अमृतस्य भायि यो मा ददाति स हि देव मा अहमन्नमन्नमदन्तमाद्मि अहम् विश्वम्भुवनमभ्य भवाम् सुवर्णज्योतिः य एवम् वेद इत्युपनिषत् सह नाभवतु सह नो भुनक्तु सह वीर्यम् करवावहै तेजस्विना वधीतमस्तु मा विषावहै ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उज्जहार प्राणेशेह कृत्तिवासा पिनाकी ईशारो देवस्य न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन विभ्राजमानः शरीरस्य मध्याद्रोचमानो धर्मरुचिर्य आगात् स मृत्युमाशानमनुद्य घोरा निहायुषेणु घृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात्मरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चम् तमायुषि वर्धयामो घृतेन श्रियम् लक्ष्मीमोबलामम्बिकाम् गाम् षष्टीम् च यामिन्द्रसेनेत्युदाहुः ताम् विद्याम् ब्रह्मयो निगुंसरूपामिहायुषेण पयामो घृतेन दाक्षायण्यः सर्वयोन्यः स योन्यः सहस्रशो विश्वरूपा विरूपाः ससोनवः सपतयः स योध्या आयुषेणो घृतमिदम् दुषन्ताम् दिव्या गणा बहुरूपा पुराणा आयुश्चिदो न प्रमथ्नन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागुम् रीरिषो मोद वीरान् एकः पुरस्ताद्यैदम् बभूव यतो बभूव भुवनस्य गोपा यमप्येति भुवनगुंसा पराये सनो हविर्घृतमिहायुषे द्युदेवः वसून्रुद्रानादित्यान् मरुतो दसाध्यान् ऋभोन्यक्षान् गन्धर्वागश्च पितृगश्च विश्वान् ऋगोन् सर्पागश्चाङ्गिरसोऽध सर्वान् हृतगम् हत्वा स्वायुष्यामहयामशश्वत् विष्णो त्वन्नो अन्तमः शर्म यच्च सहन्त्य प्रते धारा मधुश्चुत उत्सङ्ग क्रते अक्षितम् न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नागम् निहितम् गुहायाम् विभ्राजदेतद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थासन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परावृतात् परिभक्ष्यन्ति सर्वे नग्रम् विपापम् परमेष्मभूतम् यत् पुण्डरीकम् पुरमध्यसर्गस्थम् तत्राविदग्रम् गगनम् विशोकस्तस्मिञ्जदन्तस्तदुपासितव्यम् यो वेदादो स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति